वाजसनेयी संहिता पाठः अथ चत्वारिंशो अध्यायः। ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जिथा मा गृधः कस्य स्विदधनम्। कुर्वन्नेवेह कर्माणि जिजीविसेच्छतं समाः एवं त्वयि नान्यथेतो अस्ति न कर्म लिप्यते नरे। असुर्या नाम ते लोका अंधेन तमसावृताः तांस्ते प्रत्याभिगच्छन्ति ये के च आत्महनो जनाः। अनेजदेकं मनसो जवीयो नैनद देवा आप्नुवन् पूर्वमर्षत तद धावतो अन्यान्त्येति तिष्ठत तस्मिन्नपो मातरिश्वा दधाति। तदेजति तन्नैजति तद्दूरे तदु अन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः। यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति सर्वभूतेषु च आत्मनं ततो न विचिकित्सति। यस्मिन् सर्वाणि भूतान्या आत्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः। सपर्या गच्छु क्रमकायम् अवर्णस्मनाविरं शुद्धं पापविद्वं कविर्मनीषी परिभूह स्वयंभूयथिताथ्यतोऽर्थान् व्यदधाच्छाश्वतिभ्यः समाभ्यः। अंधं तमः प्रविशन्ति ये असंभूतिमुपासते ततो भूय इव ते तमो य उ संभूत्यां रताः। अन्यदेवाहु संभावदन्यादाहुरसंभवात् इति सुश्रुमधीराणां ये नस्तद्विचच्छिरे। संभूतिं च विनाशं च यस्तद्वेदो भयं सह विनाशेन मृत्युं तीर्त्वां संभूत्यामृतं श्नुते। अंधं तमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो य उ विद्यां रताः। अन्यदेवाहुरविद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणां ये नस्तद् विचच्छिरे। विद्यां च अविद्यां च यस्तत् वेदो भयं सह अविद्यया मृत्यु तीर्त्वा विद्यायाम् अमृतं श्नुते। वायुः अनिलम् अमृतम् अथ इदं भस्मान्तं शरीरम् ॐ क्रतो स्मरः क्लवे स्मरः कृतं स्मरः। अग्ने नय सुपथाराय अस्मान् विश्वानि देव वायुनानि विद्वान् युयोध्यस्मज्जुहूराणमेनो भूयिष्ठां ते नम उक्तिं विधेम। हिरण्मयेन पात्रेण सत्यास्यापिहितं मुखं यो असावादित्ये पुरुषः सो असावहम् ॐ खं ब्रह्म। इति चत्वारिंशो अध्यायः।